हते तस्मिन् महावीर्ये महिषस्य समूबतौ आजगाम गजारूढ चामरस्त्रिदशात्तनः स्वाभिशक्तिं मुमोसाद देव्यास्तामम्बिकातृतम् हूंकाराभिहतां भूमौ पादयामास निष्प्रभां भग्नां शक्तिं निवदितां दृष्ट्वा क्रोधसमन्वितः शिक्षेभच्छामरच्छूलं पाणैस्तदपि साक्षिणत् ततः सिंहसमुद्भत्य गजकुम्फान्तरे स्थितः बाहुयुद्धेन युयुते तेनोच्छैस्त्रिदशारिणा युध्यमानौ तदस्तौ तु तस्मान्नागान्महीं गदौ युयुताते अतिसम्प्रत्तौ प्रहारैरतितारुणै ततो वेगाद्गमुद्भत्य निबध्य च मृगारिणा करप्रहारेण शिर चामरस्य पृथक्कृतम् उदक्रच्छरणी देव्या शिलावृक्षादिभिर्हतः दन्तमुष्टिदलैश्चैव करालच्च निपातितः देवी कृत्ता कदापादै चूर्णयामासोत्तदम् बाष्कलं बिन्दिपालेन पाणैस्ताम्रं तदान्तकम् उग्रास्यमुग्रवीर्यञ्च तदैव च महाहनुं त्रिनेत्रा च त्रिशूलेन जगान परमेश्वरीं पिटालस्यासिनाकायात् पादयामास वैश्शिरः दुर्तरं तुर्मुखं चोभौ शरैर्निन्येयमक्षयम् एवं संक्षीयमाने तु स्वसैन्ये महिषासुरः माहिषेण स्वरूपेण त्रासयामास तान् गणान्।